आणि नंतर हे ब्रह्मणस्पती सूक्त
ओम सोमानं स्वरणं गृणे ब्रह्मणस्पते रक्षीवन्तयौषिजः योरेवान्योऽमि वहव सुवित्पुष्टिवर्धनः सनस्य शक्तु यस्तुरः मानशंसो अररुषो दूर्जः प्रणं मर्जस्य रक्षाणो ब्रह्मणस्पते सगा वीरो नरिष्यति यमिन्द्रो ब्रह्मणस्पती सोमो हिनोति मर्जम् त्वन्तम् ब्रह्मणस्पते सोम इन्द्रश्च मर्जम् दक्षिणा पात्वम् सः उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वे महे उपभ्रयन्तु मरुतः सुदानव इन्द्र प्राशु भवासजा स्वामिद्विषः तत्पुत्रमर्ज उपब्रूते धने हिते सुवीर्यम् मरुता स्वश्व्यन्दति तयो वाचके प्रयतो ब्रह्मणस्पते प्रदेव्येतु सुनृता अच्छा वीरम् नर्यम् पङ्क्तिरारसन् देवाय नो यन्तुनः यो वागते ददाति सुनरम् वसु तदत्ते अश्वीति श्रवाः तस्मा इराम् सुवीरामायो यामहे सुप्रतो श्रीमनेहसम् प्रनूनम् ब्रह्मणस्पतिर्मन्त्रम् वरत्योऽप्यम् यस्मिन्नेन्द्रो वरुणो मित्रो अरीयमादेवा ओका सुचक्रिरे तमिद्वोचे मा विदधे शुशम्भुवम् मन्त्रम् देवा अनेहसम् इमाम् च वाचम् प्रत्यहरयोता नरो विश्वे त्वामावो अश्नवत को देवयन्तमश्रवजनम् को वृत्तपरिषम् प्रप्रदाश्वान्तस्यान्तर्वयन्दधे उपक्षत्रम् वृञ्चितहन् विराज भये चित् सुक्षितिम् दोधे नास्य वर्तानत ऋतमोहाधनेनार्भे अस्ति वज्रिणाः गणानाम् त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्ववत्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृणोतिभिः श्रीदशादोनम् देवाश्चित्ते असुर्य प्रजे तसो बृहस्पते यज्ञियम् भागमानजो उस्रा इव सूर्यो ज्योतिषामहो विश्वे शामिज्वनिता ब्रह्मणामसि आविवाद्या परिरापस्तमा श्रितज्योतिष्मन्दमृतमृतस्योतिष्ठसि बृहस्पते भीम मामित्रदम्भनम् रक्षोणम् गोत्रभिदम् स्वर्विदम् सुनीतिभिरङ्गयधित्राय से जनयत्वभ्यन्दाशान्वतमहो अश्नवत ब्रह्मद्विषस्तपानो मन्युमीरति बृहस्पते मयि तत्ते महित्वनम् न तमहो न दूरितम् कुतश्च न दारातयस्तिर्नद्वया विनाः विश्वा इदस्माद्वरसो विवा दशेयम् सु गोपा रक्षोति ब्रह्मणस्पते त्वन्नो गोपापधिकृद्वैलक्षणस्तव व्रताय मतिभिरजरामहे बृहस्पते यो नो अभिवरो दधे स्वातम्मरम् मर्तुदुच्च नारस्वती उत वा यो नो मर्जयादन कसोराति वा मरदस्तानुगोलकाः बृहस्पते अपदम् वर्तया पदः सुगन्नो अस्यै देववीतये कृते त्रातारम् त्वा तनूनाम् हवामहे वस्परतरदि वक्तारोमस्मयुम् बृहस्पते देवनिदो निबर्हय माधुरेवा उत्तरम् सुनमुन्नाशन् त्वया वयम् सुहृदा ब्रह्मणस्पते स्वार्हावतु मनुष्या दधीमहि यानो दूरे तळितो या अरातयोऽपि सन्ति जम्मयाता अनप्नसा त्वया वयमुत्तमन्दि महे वयो बृहस्पते पप्रेणा सस्मीनायुजा मानो दुःशंसो अभिधुरि सदा प्रसुशंसा मतिभिस्तारिषीमयि अनानुदो वृषभो जग्मीराहवन्निष्टप्ता शत्रुमृतानुसासये असि सत्य अरुणया ब्रह्मणस्पत उग्रस्य चिद्दमितावि लोहर्षिणाः अरेवेन मनसा योरि षण्यति सा मुग्रो मन्यमानो जिहांसति बृहस्पते मा प्रणक्तसि योनो वधो निकरम् ममन्वन्धुरेवस्य जरदातः भरेषु आव्यो नमासो पचद्यो गन्ता वाजे सुतनीतादनन्दनम् विश्वायिधर्यो अविदेप्सुवो मृदो बृहस्पतिर्विभवरहारथामिव ते ज्येष्ठया तपनीरक्षतस्तपये त्वा निदेदधिरे दृष्टवीर्यम् आविस्तत्कृष्वयदत्तोक्त्याम् बृहस्पते विपरिरापो अर्घय बृहस्पते अति अधर्यो अर्हाद्युमद्विभाजे क्रतो मज्जनेषु यद्धीरयच्छव सकृत प्रजा तदस्मा सुद्रवीणे चित्रम् मानस्तेनेभ्यो ये अभिद्रुहस्पदे नीरामिणो रिपवोन्नेषु जागृधु आदेवानामोह देविव्रयो हृदि बृहस्पतेन परस्वाम्नो विदो विश्वेभ्यो हितुका भुवने बृहस्पति त्वष्टा जनत्साम्नः कवि सवृणति दृढया ब्रह्मणस्पतिर्द्रुहो हन्तामहृतस्य धर्तरि तव श्रिये व्यजित पर्वतो गवा गोत्रमुदसृजो युरन्द्रः इन्द्रेण युधा तमसा परिवृतम् बृहस्पते निरपामौब्जो अर्णवम् ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधितनयञ्च जिन्वा विश्वम् तद्भद्रं यदवन्ति देवा बृहद्वा विदधे सुवीराः सेमामाविद्य प्रभृति य ईशीषे याविधे मनवो या महागिरा यथा नो मीवान् स्तवते सखा तव बृहस्पते शीर्षदस्सो ततो मयिम् यो नन्त्वान्यनमन्योजसोतधर्धर्मन्युनाशम्भोराणि प्राच्या वयदच्युता ब्रह्मणस्पतिराचाविषद्वसुमन्थम् विपर्वोतम् तद्देवाना देवतो मायकर्त्वमश्रत्नम् दृढा बृहदन्तवीरिता उद्गा आजरवेन ब्रह्मणावलमगो हतमो व्यदक्षयत् स्वाः अस्मास्यमवतम् ब्रह्मणस्पतिर्मधुदारमभिरमोदसातृणत तमेव विश्वेऽपिरे स्वर्दृशो बहु साकम् श्रीशिजुरुत्तमदृणम् सनाता काचिर्भुवना भवेत् त्वामाद्भिशरद्भिर्दुरोरन्दवः अयोतन्ताचरतो अन्यदम् यदिद्या चकार वयुना ब्रह्मणस्पति अभिलक्षन्तो अभियेतमा न शर्निलिम्बणीनाम् परमम् वायितम् विद्वांसः प्रतिचक्ष्यामृत पुनर्यत उवायन्तदुदीरविषम् हृतावान प्रतिचक्ष्यामृता पुनरातस्तु कवयो महत्वदा ते बाहुभ्याम् दमितमग्निमश्वानि न केशो अस्तरणो जहुहृतम् हृतज्ञेन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टे प्रददश्नोति धनवो न तस्य साधीर्षबोधाभिरस्य दृशक्षसो दृशये कर्णयो नयः सन्नयः सविनयः पुरोहितः स दुष्टूतः स युधि ब्रह्मणस्पती क्ष्मो यद्वा जम्बरते मतीधनायत्सु यस्तकृतप्यदुर्वृथा विभो प्रभु प्रथमम् मे अनावतो बृहस्पते सुविदत्राणि राध्या विमासातानि वेण्यस्य वाजिनो येन जना उभये भुञ्जते विशाः यो वरे वृजने विश्वता विभुर्महामूरण्वश्यवता भवक्षीः स देवो देवान् प्रदीप प्रदे पृथु विश्वे सुताभोर्ब्रह्मणस्पतिः विश्वम् सत्यम् भगवानायुर्वापश्चन प्रवीणम् च व्रतम् वाम् अच्छेन्द्रा ब्रह्मणस्पति हविर्नो न युजेव वाजिनायुगातम् उदाशिष्ठा अनुसृण्वन्ति वह्नाय सवेयो विप्रो भरते मतीगणा वीरुद्वेषा अनुवश हृणमादरिसवारीभिरे ब्रह्मणस्पति ब्रह्मणस्पतेर्भवद्यथा वशम् सत्यो मन्युर्महि कर्म करिष्यतः योगा उला यच्छति वेविता भजन मही वारी ब्रह्मणस्पते स्वयमस्य विश्वः रायस्यामरक्षियो वयस्वतः वीरेषु वीराम् उपवृन्दिनस्त्वय्यदीशानो ब्रह्मणावेशिमेऽहवम् ब्रह्मणस्पते त्वमस्य यन्दासु कस्य बोधितनो यञ्जिन्व विश्वन्तभद्रं यदवन् देवा बृहद्वदेव विरथे सुवीराः इन्द्रानो अग्निं वनवद्वनुष्यतः कृतब्रह्मशोषुभद्रातः जातेन जातमतिसप्रसरधृते यञ्जयुजं कृते ब्रह्मणस्पती वीरेभिर्वीरान् वनवद्वनुष्यतो गोभिर्गैर्मप्रधद्बोधोऽतित्मना तो पञ्चदस्य तनयञ्च वर्धते यञ्जयुजं कृते ब्रह्मणस्पतिः सिन्धुर्नक्षो दशमी वा मृगायतो वृषे भवधीरविभक्ष्यो जोता अग्नेरिव प्रसीतिर्नाह वर्तवेयञ्जयुजं कृते ब्रह्मणस्पतिः तस्मा अर्षन्ति दिव्याश्च तस्य सद्भवे प्रथमो गोषु गच्छति अनिवृष्टतविषर्हन्त्यो जसायञ्जयुजं कृते ब्रह्मणस्पतिः तस्मा इति विश्वे दुनयन्त सिन्धवो विदुरा शर्म दजिरे पुरूणि देवानाम् सुम्ने सुभगः स एयञ्जयुजं कृणुते ब्रह्मणस्पतिः ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्तमभ्यसत सुप्रावीरिद्वनवत्पृच्छु दुष्टरं यद्वेदयज्ञो विभजाति भोजनम् यजस्ववीर प्रवीः मनायतो भद्रं मनः कृणुष्वृत्रचूर्ये हविष्कृणुष्व सुभगो यथा चाति ब्रह्मणस्पतेरव आवृणीमहे शैर्जनेन सविशास जन्मानासपुत्रैर्वाजं भरति धनान्वीः देवानाय पितरमाभिवादते श्रद्धामनाहविषा ब्रह्मणस्पतिम् यो अस्मै हव्यैर्घृतवद्भिरभिधत्प्रतम् प्राचानोयते ब्रह्मणस्पतिः उरुष्यति मम हासो रक्षोतिदस्मा उरुदक्रिरद्भूतः समुज्येष्ठन्नमसा हविरविसुषेवम् ब्रह्मणस्पतिम् गृणीषे इन्द्रां श्लोको महिदैव्यसुरत्रयो ब्रह्मणो देवगृहस्य राजा इयं वां ब्रह्मणस्पते सुहृद्भिर्ब्रह्मेन्द्राय वज्रिणे अकारि अवेष्टन्द्रियो जिगृतं पुरन्धिर्यजस्तमर्यो वनुषामरादि तत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यरुचि अरायं ब्रह्मणस्पतेति न शृङ्गो दृशन्निः अधो यद्वारो प्लवते सिन्धो पारे अपूरुषम् तदारभस्व दुर्हणो तेन गच्छ परस्परम् अग्निर्येण विराजति सूर्यो येन विराजति विराज्येन विराजति तेनात्मान् ब्रह्मणस्पते विराजसमिदम् गुरुः